एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सुर्खेत दैलेख जनपदयोः सीमक्षेत्रे वीरेन्द्रनगर नगरपालिकायाः चतुर्दश वडा क्षेत्रस्य रातानांगला स्थान निकटे स्फोर्स यानस्य दुरापन्नायां दुर्घटनायां मृताः चत्वारः एव जनाः सत्यापिताः वर्तन्ते। सुर्खेत जनपद प्रहरी कार्यालयस्य अनुसारेण दुर्घटनायां दैलेख जनपदस्य भैरवी ग्रामपालिकायाः पञ्चम वडा क्षेत्रस्य यानचालकः अष्टात्रिंशत् वर्षीयः सुरेश केसी, द्वितीय वडा क्षेत्रस्य षट्त्रिंशत् वर्षीयः कर्णबहादुर विष्ट, प्रथम वडा क्षेत्रस्य षोडश वर्षीया दीपिका महतारा, एकविंशति वर्षीया संगीता विष्टश्च मृताः वर्तन्ते। ह्य दैलेखापणात् सुर्खेत जनपदं प्रति प्रस्थितं फोर्स यानम् अनियन्त्रितं भूत्वा दुर्घटितं सद् चत्वारो जना मृताः, त्रिंशत् जना आहताश्च आसन्। चतुस्त्रिंशता जनैः आरूढं बसयानमेतद् मार्गाद् आसन्न शतद्वय मीटरमितम् अधः निपतितमिति सुर्खेत जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षकः वीरेन्द्र वीर विश्वकर्मा अज्ञापयत्। नारायणगढ़ मोंगलिङ मार्गखण्डस्य 17 किलो स्थाने दुरापन्नायां दुर्घटनायां मृताः पञ्च जनाः सत्यापिताः वर्तन्ते। पूर्वेद्यो मोंगलिङ स्थानात् नारायणगढ़ स्थानं प्रति गच्छत् वैद्युत हायस यानम् विपरीत दिशा नारायणगढ़ स्थानात् मोंगलिङ स्थानं प्रति आगच्छता बसयानेन सह संघटितं सत् पञ्च जनाः मृताः आसन्। मृतकाः गोर्खा जनपदस्य आरूघाट ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य मानवो स्थानस्य द्वाचत्वारिंशत् वर्षीय राजबहादुर गुरूङ, माइक्रो बसयान चालकः चितवन जनपदस्य खैरहनी नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य चत्वारिंशत् वर्षीय अनुज अधिकारी, विनय त्रिवेणी ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य बगैंचा स्थानस्य पञ्चत्रिंशत् वर्षीय सन्तोष भूषालः, तत्स्थानीय एव त्रयस्त्रिंशत् वर्षीय सबिना भूषालः, भारत गृहवर्ती सम्प्रति पोखरा निवासी षट्त्रिंशत् वर्षीय राजकुमार साहश्च सन्ति। मृतकाः सर्वेपि माइक्रो बस याने आरूढाः यात्रिणः आसन्निति चितवन जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षक भेषराज रिजालः असूचयत्। संसदीय श्रवण समित्या सर्वोच्च न्यायालयस्य कृते प्रस्ताविते न्यायाधीशयोः नृपध्वज निरुलाभिदस्य नित्यानन्द पाण्डेभिदस्य च नामनि सर्वसम्मत्या अनुमोदिते स्तः। समितेः ह्यस्तनोपवेशेन सर्वोच्च न्यायालयस्य कृते प्रस्तावितयोः निरौला पाण्डेभिदयोः संसदीय श्रवणं समाप्य एतयोर्नामनि सर्वसम्मत्या अनुमोदिते स्त इति समितेः सभापतिः पशुपति शमशेर जबरा असूचयत्। संसदीय श्रवणस्य क्रमे सर्वोच्च न्यायालयस्य प्रस्तावित न्यायाधीशौ निरौला पाण्डे च संविधानेन विधिना च न्यायपालिकायै अर्पिता भूमिका दायित्वञ्च सहजरूपेण गुणस्तरीयतां प्रभावकारितां च संस्थाप्य सम्पादयिष्यते इति प्रतिबद्धतां व्यक्तवन्तौ आस्ताम्। परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा त्रिभुवनान्तर्राष्ट्रिय विमानस्थल कार्यालयेन सम्भारस्य कृते विमानस्थल सञ्चालनस्य समयावधिं न्यूनीकृत्य विमानानाम् उड्डयने उत्पन्न समस्यां समाधातुम् अनुरुणद्धि। परराष्ट्रमन्त्री राणा ह्य परराष्ट्र मन्त्रालये श्रम मन्त्रिणा शरदसिंह भण्डारिणा, संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा बद्री पाण्डे विधेन च सहितस्य उपवेशे मन्त्री डाक्टर राणा विकसित पश्चात्तन परिस्थितेः अध्ययनं कृत्वा समस्यायाः आवश्यक समाधानम् अन्वेष्टुम् अन्वरुणत। विमानस्थल कार्यालयेन उड्डयनस्य समयस्य प्रतिदिनं 10 घण्टा न्यूनीकरणस्य पश्चात् वैदेशिक वायुसेवा संस्थानैः काष्ठमण्डपाय उड्डयनानि न्यूनीकृतानि सन्ति। इदं कारणमेव च प्रदर्श्य वायुसेवा संस्थानैः नेपालात् विधीयमाने उड्डयने शत प्रतिशतं यात्रा शुल्कस्य वर्धनात् समस्या उत्पन्ना वर्तते। नेपाल वैदेशिक वृत्त्युपार्जन व्यवसायी संघस्य प्रतिनिधिभिः समस्यायाः समाधानाय अनुरुध्य मन्त्रिणे डाक्टर राणा विधायी ज्ञापनपत्रं प्रदत्तम् आसीत्। उपवेशे संस्कृति पर्यटन नागरिकको डयन मन्त्री बद्री पाण्डे विमानस्थलस्य सम्भारस्य कार्यस्य सूचनायाः पूर्वमेव प्रकाशितत्वात् सम्प्रति वायुसेवा प्रदायकैः संस्थानैः स्वेच्छाचारितया यात्रा शुल्कम् वर्धयितुम् न शक्यते इति चर्चयन् समस्याया समाधानाय विकल्पस्य अन्वेषणाय विमर्शनम् सञ्चलत् अस्ति इति असूचयत्। नेकपा एमाले दलीय बागमती प्रदेश समित्या उपनिर्वाचनस्य सर्वेपि प्रत्याशिनः निश्चिताः सन्ति। उपविष्टेन प्रदेश समिति सचिवालयस्य उपवेशेन बागमती प्रदेशस्य रिक्तपदानां कृते प्रत्याशिनः निश्चिताः सन्ति इति एमाले दलीय बागमती प्रदेशस्य इन्चार्ज पदीयः डाक्टर राजन भट्टराई अज्ञापयत्। एतस्य अनुसारेण जनपद समितिभिः परामृष्टानां जनानां नामानि एव प्रत्याशित्वेन निश्चितानि वर्तन्ते। तत्र कीर्तिपुर नगरपालिकायाः प्रमुखपदे डाक्टर सुरेन्द्र मानन्धर, दोलखा जनपदस्य गौरीशंकर ग्रामपालिकायाः उपाध्यक्षपदे उमा लुङ्गेली मगर, काष्ठमण्डप महानगरपालिकायाः षोडश वडा क्षेत्रस्य अध्यक्षपदे लक्ष्मी रत्न तुलाधर, हेटौँडु उपमहानगरपालिकायाः द्वादशवडा क्षेत्रस्य अध्यक्ष राजेश नगर कोटी च प्रत्याशित्वेन निश्चिताः वर्तन्ते। आगामिनः मार्गशीर्ष मासस्य षोडशे दिवसे आराष्टम् रिक्तपदेषु उपनिर्वाचनम् सम्पत्स्यमानम् अस्ति। नेपाल टेलिभिजन संस्थानम् रेडियो नेपालम् च एकीकृत्य एतयोः सार्वजनिक प्रसारण संस्थायाः संस्थायां रूपान्तरण सम्बद्धः अधिनियमः ह्यस्तन दिवसात् क्रियान्वितो वर्तते। अधिनियमस्य प्रमाणीकरणस्य एकत्रिंशात् दिवसात् क्रियान्वयनं भविष्यति इति वैधानिक व्यवस्थायाः अनुसारेण ह्यस्तन दिवसात् नूतनाधिनियमः क्रियान्वितो वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन सार्वजनिक सेवा प्रसारण सम्बद्धस्य एतद् विक्रमवर्षीयाधिनियमस्य गताश्विन मासे प्रमाणीकरणम् विहितम् आसीत्। नूतनाधिनियमस्य क्रियान्वयनेन सहैव नेपाल टेलिभिजन संस्थानस्य रेडियो नेपालस्य च सार्वजनिक प्रसारण संस्थायां रूपान्तरणाय प्रक्रियाम् अग्रे वर्धयितुं मार्ग प्रशस्तीभूतो वर्तते। सार्वजनिक प्रसारण संस्थायाः संचालक समितेः अनिर्माणं यावत् संस्थाद्वयस्य संचालक समितिभ्याम् यथावत् कार्यम् सम्पादयिष्यते इति व्यवस्था नूतनाधिनियमे वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाश मान सिंह देशस्य प्रमुख नगरीय समाह्वयानाम् सम्बोधनाय युनाइटेड नेशन्स ह्यूमन सटलमेन्ट कार्यक्रमेण सह सहकार्यम् करिष्यते इति प्रतिबद्धताम् व्यनक्ति। इजिप्ट देशस्य कायरो नगरे सञ्चलति वर्ल्ड अवान फोरम नामाख्ये कार्यक्रमे ह्य कार्यक्रमस्य अस्य एशिया प्रशान्त क्षेत्रीय प्रतिनिधिना काजुको इशिगाकी इत्यनया, नेपालस्य कृते संयुक्त राष्ट्र संघीय प्रतिनिधिना हाना सिंगर ह्याम्डी इत्यनेन च सह मन्त्रणा सिम्मेन द्विपक्षीयोपवेश मेलवार्ता च विहितासीत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा दलस्य नेपाली जनसम्पर्क समिति समन्वय विभागस्य सदस्यान् मनोनीतवान् वर्तते। सभापतिना देउवा विधेन केन्द्रीय सदस्यस्य किरण राज शर्मा पौडेलस्य प्रमुखत्वे विद्यमानस्य अस्य विभागस्य अष्टाविंशति सदस्याः मनोनीताः सन्ति इति मुख्य सचिवः कृष्ण प्रसाद पौडेलः असूचयत्। सामयिक राजनीतिः सर्वकारस्य सञ्चालनाय संघटितं समन्वय संयन्त्रम् उपनिर्वाचनम् चेत्यादिषु विषयेषु विमर्शनाय नेकपा एमाले दलीय सचिवालय उपवेशः अद्य वसति। एमाले दलीय प्रचार विभागस्य प्रमुखस्य राजेन्द्र गौतमस्य अनुसारेण उपवेशः अद्य पूर्वाह्नस्य एकादश वादने ललितपुरस्य च्यासल वर्तिनी केन्द्रीय कार्यालये वसति। इति समाचाराः।